एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते आराष्ट्रं विभिन्नानां निर्वाचन क्षेत्राणाम् एकोनपञ्चाशत संख्यातै प्रत्याशिभिः प्रत्याशिता प्रत्यावर्तिता अस्ति इति निर्वाचन आयोगेन ज्ञापितम् वर्तते। आयोगेन ह्य आयोजिते साप्ताहिकी पत्रकार सम्मेलने प्रवक्ता नारायण प्रसाद भट्टराई अधुनावधि विभिन्नेभ्यः निर्वाचन क्षेत्रेभ्यः आयोगस्य प्रणाल्यां प्राप्तायाः सूचनायाः अनुसारेण एकोनपञ्चाशत् संख्यातै प्रत्याशिभिः प्रत्याशिता प्रत्यावर्तिता अस्ति। प्रत्यक्ष निर्वाचनस्य अन्तिमा नामावली ह्य आराष्ट्रं सप्तसप्ततिः मुख्य निर्वाचनाधिकृतानाम् अष्टाशीतिः निर्वाचनाधिकृतानां च कार्यालयानां माध्यमेन प्रकाशिता अस्ति इति आयोगेन ज्ञापितं वर्तते। एवमेव ह्य दलानां पक्षतः स्वतन्त्रतया प्रत्याशिता पञ्जीकृतवद्भ्यः प्रत्याशिभ्य निर्वाचनचिह्नं प्रदत्तमस्ति। पत्रकार सम्मेलने समानुपातिक निर्वाचन प्रणाल्यः प्रत्याशिनां नामावलिं प्रकाश्य अद्य विरोध ज्ञापनस्य समय निर्धारितोऽस्ति इति प्रवक्ता भट्टराई असूचयत्। समानुपातिक प्रणाल्यः कृते राजनीतिक दलैः गतपौष मासस्य त्रयोदश चतुर्दशयोः दिवसयोः गोप्यसूची प्रस्तुता आसीत्। अद्य समानुपातिक पक्षतः विरोध ज्ञापन प्रस्तुतेरनन्तरम् अन्तिमा नामावली प्रकाश्यते इति पत्रकार सम्मेलने प्रवक्त्रा भट्टराई इत्यनेन ज्ञापितम् आसीत्। नेपाली कांग्रेस दलेन नवनिर्वाचितं दलसभापतिं गगन कुमार थापाविदं भावि प्रधानमन्त्रिणः प्रत्याशिनो रूपेण निर्धार्य निर्वाचने प्रतिस्पर्धितुं निर्णीतं वर्तते। सानेपावर्तिनी दल केन्द्रीय कार्यालये ह्य उपविष्टेन केन्द्रीय कार्यसमितेः उपवेशेन सभापतिं थापाविदं प्रधानमन्त्रिणो रूपेण अग्रेसारयितुं सर्वसम्मतरूपेण निर्णीतमस्तीति उपवेशस्य पश्चात् कांग्रेस दलस्य उपसभापतिः विश्वप्रकाश शर्मा असूचयत्। दलेन एतत्पूर्वं षट्पञ्चाशदधिक द्विसहस्रतम विक्रमवर्षस्य निर्वाचने कृष्णप्रसाद भट्टराई इत्यमुं भावि प्रधानमन्त्रिणो रूपेण अग्रेवर्धयित्वा निर्वाचनं प्रतिस्पर्धितमासीत्। एवमेव उपवेशेन श्व माघ मासस्य एकादशे दिवसे सम्पत्स्यमाने निर्वाचने सर्वै प्रदेश सभापतिभि सह समन्वयं विधातुं दलस्य उपसभापतये पुष्पाभूषाल इत्यस्य दायित्वं निर्धारितम् वर्तते। उपवेशस्य पश्चात् संचारकर्मिभ्य प्रतिक्रियां प्रददत् नेपाली कांग्रेस दलस्य सभापतिः थापा समयाभावस्य कारणेन अस्मिन् निर्वाचने प्रत्याशिनां चयनस्य क्रमे कतिपयः त्रुटयः सत्योऽपि आगामि दिनेषु संशोधनं कृत्वा दलम् अग्रेवर्धिष्यते इति प्रतिबद्धतां व्यक्तवान्। सभापति थापा अथ परं परिवर्तितेन कांग्रेस दलेन देशे परिवर्तनस्य आनयनस्य संकल्पेन सह एकताबद्धं भूत्वा निर्वाचने प्रतिस्पर्धिष्यते इति अवदत्। श्वः माघ मासस्य एकादशे दिवसे सम्पत्स्यमानस्य राष्ट्रियसभा सदस्यानां निर्वाचनस्य सम्पूर्णं पूर्वकार्यं प्रपूरितमस्ति इति निर्वाचन आयोगेन ज्ञापितं वर्तते। आयोगेन ह्य आयोजिते पत्रकार सम्मेलने राष्ट्रियसभा सदस्यानां निर्वाचनस्य कृते मतदानाय सम्पूर्णं पूर्वकार्यं प्रपूरितमस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। निर्वाचनस्य कृते मतपत्राणि सम्बद्धानां निर्वाचनाधिकृतानां कार्यालयेषु प्रेषितानि सन्ति। राष्ट्रियसभा सदस्यानां निर्वाचनस्य मतदानं श्वः माघ मासस्य एकादशे दिवसे प्रातः नववादनात् त्रिवादनं यावत् सम्बद्धेषु प्रदेशेषु निर्धारितेषु मतदान केन्द्रेषु भवितेति आयोगेन ज्ञापितमस्ति। श्वः रविवासरे अष्टादश राष्ट्रियसभा सदस्यानां निर्वाचनं विधास्यमानमस्ति। तत्र नेपाली कांग्रेस दलस्य सुनील बहादुर थापा निर्विरोधं निर्वाचितोऽस्ति। सप्तदश सदस्यानां कृते सप्तानामेव प्रदेशानां राजधानीषु मतदानस्य स्थानानि निर्धारितानि वर्तन्ते। राष्ट्रियसभा सदस्यानां निर्वाचनस्य कृते प्रदेशसभा सदस्यः स्थानीयस्तराणां प्रमुखः उपप्रमुखः अध्यक्षः उपाध्यक्षश्च मतदातारः भवन्ति इति वैधानिकी व्यवस्था वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे गृहमन्त्रिणा ओमप्रकाश अर्यालेन त्रयो अध्यादेशाः प्रस्तुताः वर्तन्ते। उपवेशे मन्त्री अर्यालः त्रिसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं मतदातृनामावल्याधिनियमं संशोधयितुं निर्मितम् एतद् विक्रमवर्षीयम् अध्यादेशं प्रतिनिधिसभा सदस्यानां निर्वाचन सम्बद्धम् एतद् विक्रमवर्षीयं प्रथम संशोधनाध्यादेशं नेपाल विशेष सेवा सम्बद्धाधिनियमस्य एतद् विक्रमवर्षीयं द्वितीय संशोधनाध्यादेशं च प्रास्तौत्। उपवेशे विकास आर्थिक विषय सुशासन समिति सभापति कमला पन्त राष्ट्रिय सदाचार नीति सम्बद्धम एतद् विक्रम वर्षीयम् प्रतिवेदनम् प्रस्तोत एवमेव विधायन व्यवस्थापन समिति सभापति तुलसा कुमारी दहाल पर्यटन विधेयक सम्बद्धम् गत विक्रम वर्षीयम् प्रतिवेदनम् प्रस्तुतवती उपवेशे सांसद देशस्य वर्तमानावस्थाया जेन्जीयूनाम् आन्दोलनस्य क्रमे सम्भूताया क्षते प्रभावस्य च निर्वाचनस्य सुरक्षायाश्च विषये सुसर्वकारस्य ध्यानमाकृष्टवन्त राष्ट्रियसभाया परोपवेशः सैव माघमासस्य त्रयोदशे दिवसे मंगलवासरे दिवा सपादैकवादने वस्ता राष्ट्रपतिः रामचन्द्र पौडेलः निगदति शान्ति सुरक्षां संस्थाप्य देशस्य जनतायाश्च सर्वोत्तम हिताय कार्यकरणं सुरक्षा निकायानां धर्मो वर्तते पञ्चविंशस्य सशस्त्र प्रहरी दिवसस्य अवसरे पूर्वेद्युः सशस्त्र प्रहरी बल नेपालस्य हलचोकवर्तिनी केन्द्रीय कार्यालये आयोजितं कार्यक्रमं सम्बोधयन् राष्ट्रपतिः पौडेलः नेपाल प्रहरिणा उच्च व्यावसायिक शिल्पेन सामर्थ्येन कुशलतया च राष्ट्रहितं सर्वोपरि संस्थाप्य जनतायाः स्वतन्त्रतायाः स्वाभिमानस्य सम्पदश्च सुरक्षां कृत्वा प्रदत्ता सेवा प्रशंसनीया अस्तीति उदैरयत् विद्यायाः अधिष्ठात्र्या भगवत्याः सरस्वत्याः पूजाराधन पुरस्सरं ह्यः शुक्रवासरे श्रीपञ्चमी पर्व समायोजितम् परम्परायाः अनुसारेण अस्मिन्नेव दिने काष्ठमण्डपस्य वसन्तपुरस्थिते हनुमद्वार प्रासादे महाकविना जयदेवेन लिखितात् गीत गोविन्द काव्यात् वसन्तश्रवणं विधीयते राष्ट्रपतिः रामचन्द्र पौडेलः वसन्त पञ्चम्याः अवसरे ह्यः काष्ठमण्डपस्य वसन्तपुरस्थिते हनुमद्वारवर्तिनी नासलचोकस्थाने वैदिक विधिपूर्वकं वसन्तश्रवणम् व्यदधात् वसन्तश्रवणाय उपराष्ट्रपति रामसहाय प्रसाद यादव प्रधानमन्त्री सुशीला कार्की राष्ट्रियसभाया अध्यक्ष नारायण प्रसाद दाहाल सांविधानिक निकायानां प्रमुख मन्त्रिण सुरक्षा निकायानां प्रमुखाश्च हनुमद्वारं प्राप्त आसन् सर्वकारेण निर्धारितानाम् उद्योग व्यवसायानां क्षेत्रेषु स्वचालित मार्गात् जायमानस्य वैदेशिक निवेशनस्य उपरितनीं सीमाम् अपसारयितुं निर्णीतमस्ति मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता गृहमन्त्री ओम प्रकाश अर्यालः एवं ज्ञापितवान् इति समाचारः।